इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः जलप्लावनस्य स्थितिं समीक्षितुं पंजाब राज्यं गमिष्यति। सः व्यक्तिगत रूपेण स्थानीय स्थित्याः मूल्यांकनं करिष्यति तथा च प्रभावितानां जनानां अधिकतमं साहाय्यं सुनिश्चेतुं वास्तविकताम् अवगच्छति इत्यपेक्षते। पंजाब भाजपाध्यक्षः सुनील जाखर इत्येषः सोशल मीडिया संदेशे अस्याः यात्रायाः पुष्टिम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री संकटकालस्य विषये अतीव चिन्तितः अस्ति, घटनाक्रमस्य निरीक्षणं च निकटतया कुर्वन्नस्ति। श्रीजाखरः पुनरुक्तवान् यत् भारतसर्वकारः पंजाबराज्यस्य जनैः सह दृढतया स्थितः अस्ति। केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः परिस्थितिं समीक्षितुं राज्यस्य यात्राम् अकरोत्। एतदतिरिच्य जलप्लावेन जातस्य क्षतेः मूल्यांकनं कर्तुं द्वे केन्द्रीय अन्तामन्त्रालयदले नियुक्तौ। अत्रान्तरे पंजाबराज्ये स्थितिः क्रमेण नियन्त्रणे आगच्छति। अद्यावधि राज्ये प्रायः 46 जनाः मृत्युमुपगताः। तत्र विभिन्नानि दलानि विशेषज्ञैः सह सामूहिकरूपेण परस्परं साहाय्योद्धारकार्ये संलग्नानि सन्ति। प्रायः 2000 ग्रामाः 87,000+ जनाः च जलप्लावनेन प्रभाविताः सन्ति। राज्यस्य प्रशासनेन मंगलवासरात् राज्यस्य सर्वाः शैक्षिकसंस्थाः उद्घाटिताः भविष्यन्ति इति घोषितम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां भाजपेति दलस्य संसत्सदस्यानां प्रशिक्षणकार्यक्रमस्य समापनसत्रं सम्बोधयिष्यति। श्वः आयोक्ष्यमाणे उपराष्ट्रपतिनिर्वाचनस्य मतदानप्रक्रियायाः विषये संसत्सदस्यानां कृते मूलभूतप्रशिक्षणं प्रदातुं संसत्परिसरस्य बालयोगी प्रेक्षागृहे ह्यः द्विदिवसीया कार्यशाला आरब्धा। कार्यशालायाः प्रथमदिवसस्य अनन्तरं प्रसारमाध्यमैः सह वार्तालापं कुर्वन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् सर्वेषु प्रशिक्षणसत्रेषु प्रधानमन्त्री उपस्थितः आसीदिति। श्री रिजिजुः अवदत् यत् NDA दलानां सांसदाः अपि अद्य कार्यशालायां सम्मिलिताः भविष्यन्ति। सर्वोच्चन्यायालयः अद्य निर्वाचन आयोगस्य जूनमासस्य 24 निर्वाचनसूच्यां विशेषगहन संशोधनस्य निर्णयस्य विरुद्धे प्राप्तयाचिकासु विचारं करिष्यति। न्यायमूर्ति सूर्यकान्तः न्यायमूर्ति जॉयमाल्या बागची इत्येतयोः पीठं RJD राष्ट्रीय जनता दलस्य AIMIM इति ऑल इंडिया मजलिसे इत्तेहादुल मुस्लिमीन इत्यादीनां दलानां तथा अन्येषां याचिकाकर्तॄणां याचिकासु विचारं करिष्यति। भारत ऋतु विभागेन अद्य गुजरात राजस्थानयोः पृथक् पृथक् स्थानेषु अतिवृष्टेः पूर्वानुमानं कृतम्। विभागस्यानुसारं मध्यप्रदेशे ओडिशाराज्ये उपहिमालये पश्चिमबंगे सिक्किमराज्ये तमिलनाडुप्रदेशे पुदुच्चेरीप्रदेशे करैक्कले उत्तराखण्डे च अद्य अतिप्रचण्डवृष्टिः भविष्यति। आगामिषु 3 दिनेषु जम्मू हिमाचलप्रदेश पंजाब मध्यप्रदेश इत्येतेषु प्रदेशेषु अपि लघुतः मध्यमवर्षा भवितुमर्हति। ऋतुविभागस्यानुसारम् अद्य आन्ध्रप्रदेशे बिहारराज्ये कर्णाटके झारखण्डे केरलराज्ये माहेप्रदेशे तेलङ्गानाराज्ये च विद्युद्योतनेन सह वृष्टिः भविष्यति। हॉकीति क्रीडायां भारतेन बिहारस्य राजगीरे दक्षिण कोरिया दलं 4-1 इत्यंकान्तरालेन पराजित्य 4th पुरुष एशिया कप स्पर्धा विजिता। भारतीय पुरुष हॉकी दलस्य भव्य विजयाय प्रधानमन्त्रिणा नरेन्द्र मोदिना वर्धापितम्। एकस्मिन् सोशल मीडिया सन्देशे श्रीमोदी अवदत् यत् एतद् विजयम् इतोऽपि विशिष्टमस्ति यतः ते गतविजेतारं दक्षिण कोरिया दलं पराजितवन्तः इति। भारतीय हॉकी इति क्रीडायाः कृते भारतीय क्रीडायाः कृते च अयं गौरवपूर्णः क्षणः अस्ति इति प्रधानमन्त्रिणा उक्तम् इति वार्ताः।